इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। सेना प्रमुखेण जनरल उपेन्द्र द्विवेदिना जम्मू कश्मीरस्य शक्सगामोपत्यका विषयिणी चीन पाकिस्तानयोः त्रिषष्ट्यधिकोनविंशतितमाब्दीया सहमतिः विधिविरुद्धा घोषिता। चीनदेशीय विदेशमन्त्रालयस्य प्रवक्तुः शक्सगामोपत्यकायाः विषये टिप्पणीम् अभिलक्ष्य सः एवम् अवादीत्। जनरल द्विवेदी उक्तवान् यत् भारतम् उपत्यकायां कीदृग् विधाय अपि क्रियाकलापाय स्वीकृतिं न ददाति।
India considers 1963 agreement between Pakistan China as illegal. Therefore, any activity in Shakskam Valley is concerned, we do not approve of it. And in this terms, MEA has already issued the statement. Therefore, the joint statement which has been issued in China, what I understand about the CPEC 2.0, we do not accept it and we consider that it is a illegal action which is being carried out by the two nations.
Shri Dwivedi uktavan yat China deshena saha vastavik niyantrana rekhaya स्थितिः सुस्थिरा अस्ति, परन्तु सततं समवधानता आवश्यकी अस्ति। सः पुनः अवदत् यत् सिन्दूराभियानं सेनात्रयस्य समन्वयस्य श्रेष्ठम् उदाहरणम् अस्ति, अपि च एतत् अभियानम् अद्यापि प्रवर्त्यते। श्रीमता द्विवेदिना उक्तं यत् शत्रूणां कीदृग्विधस्य अपि दुस्साहसस्य प्रभावि प्रत्युत्तरं प्रदास्यते। फ्रांस राष्ट्रपतेः इमैनुअल मैक्रों इत्यस्य रणनीतिक परामर्शदः इमैनुअल बोनः ह्यः नवदिल्ल्यां प्रधानमन्त्रिणं नरेन्द्र मोदिनम् अमिलत्। वैश्विक सुरक्षा परिदृश्ये आह्वानानि सम्मुखीकर्तुं शान्तिं स्थिरतां च प्रवर्धयितुं भारत फ्रांस देशाभ्यां घनिष्ठ सहयोगस्य महत्वं सबलं प्रतिपादितम्। नवदिल्ल्यां ह्यः राष्ट्रिय सुरक्षा परामर्शदः अजित डोभालः, फ्रांस राष्ट्रपतेः रणनीतिक परामर्शदः इमैनुअल बोनः च अष्टात्रिंशत्तमस्य भारत फ्रांस रणनीतिक संवादस्य सहाध्यक्षतां कुरुताम्। संवादकाले उभाभ्यां पक्षाभ्यां रणनीतिक सहभागितां प्रति स्व स्व प्रतिबद्धता पुनरुदीरिता। उभौ अपि देशौ रक्षा सुरक्षान्तरिक्ष सैन्य परमाणु सहयोग प्राविधिकी क्षेत्रेषु अनुवर्तमानानां द्विपक्षीय पदक्षेपाणां विषये चर्चां कृतवन्तौ। अपि च मेक इन इण्डिया इत्यस्य आत्मनिर्भर भारतस्य च भावनया प्रेरितानां संयुक्त विकासस्य सहयोगस्य च अवसराणां विषये अपि चर्चा अभवत्। एतदतिरिच्य परिवर्तित भू राजनीतिक स्थितिं समानतया चिन्ताजनकान् क्षेत्रीयान् अन्ताराष्ट्रियान् च विषयान् अभिलक्ष्य विचारणा जाता। अद्य मकर संक्रान्तिः वर्तते। अयम् उत्सवः नवशस्यानां हर्षेण सूर्यस्य उत्तरायणेन च सह सम्बद्धः अस्ति। पर्व एतत् देशस्य विभिन्नेषु भागेषु पोंगल उत्तरायण भोगाली बिहु नामभिः सोत्साहम् आमान्यते। CSPOC इति राष्ट्रमण्डल देशानां राष्ट्रिय संसदाम् अध्यक्षाणां पीठासीनाधिकारिणां च अष्टाविंशतितमं सम्मेलनम् अद्य प्रभृति नवदिल्ल्याम् आरभते। भारतस्य आतिथ्ये त्रिदिवसीयम् एतत् सम्मेलनम् जनवरी मासस्य 16 दिनांकं यावत् प्रवर्तिष्यते। लोकसभायाः अध्यक्षः ओम बिरला एतस्य सम्मेलनस्य अध्यक्षतां करिष्यति। तत्रान्तरे नवदिल्ल्यां श्री बिरला वार्ताहरान् असूचयत् यत् प्रधानमन्त्री नरेन्द्र मोदी जनवरी मासस्य 15 दिनांके संविधान सदनस्य ऐतिहासिके सेन्ट्रल हॉल इत्यस्मिन् सभागारे सम्मेलनस्य उद्घाटनं करिष्यति। अन्ते क्रीडा वार्तासु, वुमन्स प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ नवी मुंबय्यां डॉ डीवाई पाटिल स्पोर्ट्स एकेडमी क्रीडांगणे मुंबई इंडियंस दलेन गुजरात जायंट्स दलं 7 क्रीडकैः पराजितम्। पूर्वं 93 धावनांकाः अर्जिताः आसन् इति वार्ताः।